इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी दक्षिणाफ्रीका देशस्य जोहान्सबर्गे आयोजितस्य जी विंशति शिखर सम्मेलनस्य प्रथमं सत्रं सम्बोधितवान्। श्रीमोदी अवदत् यत् वैश्विक विकासस्य मानदण्डानां पुनरवलोकनस्य सर्वसमावेशस्य सुस्थिरतायाः च वृद्ध्यै प्राथमिकतायाः च कृते अयमेव उचितः कालः अस्ति। सः अवदत् यत् भारतस्य सभ्यतायाः मूल्यानि विशेषतः एकीकृत मानवतावादस्य सिद्धान्तः अग्रेसर्तुं सार्थकमार्गं प्रदर्शयत्। प्रधानमन्त्रिणा स्वास्थ्यापत्कालेषु प्राकृतिकापत्सु च संयुक्तरूपेण कार्यं कुर्वन् विश्वं सुदृढं कर्तुं जी विंशति वैश्विक स्वास्थ्य सेवा प्रतिक्रियादलस्य निर्माणाय अपि प्रस्तावम् उपस्थापितवान्। सः अवदत् यत् तेषां प्रयासः जी विंशति सदस्य राष्ट्राणां प्रशिक्षित चिकित्सकीय विशेषज्ञ दलानां निर्माणाय भवेत्, यानि दलानि कदापि आपत्काले सत्वरं सज्जानि भवेयुः। प्रधानमन्त्री जोहान्सबर्गे जी विंशति शिखर सम्मेलनावधौ अनेकैः विश्वनेतृभिः सह संवादं कृतवान्। श्रीमोदी अवदत् यत् अंगोला देशस्य राष्ट्रपतिना अफ्रीका संघस्य अध्यक्षेण च जुआवो मैनुअल गोंजाल्वेल्स लोरेंसो इत्यनेन सह सुष्ठु चर्चा अभवत्। प्रधानमन्त्रिणा उक्तं यत् भारतस्य अंगोला देशेन सह मैत्री अमूल्यमस्ति, तथा च उभौ देशौ व्यापारस्य सांस्कृतिक सम्बन्धस्य च विस्ताराय युगपत् कार्यं कुरुतः। श्रीमोदी इथियोपिया देशस्य प्रधानमन्त्रिणा अबीय अहमद अली इत्यनेन सह अपि मिलित्वा भारत इथियोपिया सम्बन्धं सुदृढं वर्णितवान्। अन्यस्मिन् सत्रे प्रधानमन्त्रिणा जर्मनी देशस्य राष्ट्राध्यक्षेण फ्रेडरिक मर्जेन सह वार्तालापः कृतः। जोहान्सबर्ग नगरे जी विंशति शिखर सम्मेलने विश्वनेतारः अमेरिकीय विरोधम् उपेक्ष्य सर्वसम्मत्या सहमतिद्वारा वा संयुक्त घोषणाम् एकाम् अंगीकृतवन्तः। घोषणायाम् एकता, समानता, स्थायित्वं च समावेशि वैश्विक वृद्धेः आवश्यकाः स्तम्भाः वर्णिताः। ऊनचत्वारिंशत् पृष्ठात्मिकायां संहितायाम् ऊर्जा सुरक्षा जलवायु कार्याणि आपत् प्रतिरोधकता इत्यादि विषयाः चर्चिताः सन्ति। वर्धमानानि भूराजनैतिकानि आपीडनानि, संघर्षाः, गभीरा असमानता च आर्थिकस्थिरतायै तर्जनारूपेण स्वीकृतानि। घोषणायां बहुपक्षीय सहकारस्य, अन्ताराष्ट्रिय विधीनां पालनस्य, शान्तिपूर्ण विवाद निराकरणस्य च चर्चा वर्तते। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुम् प्रभवन्ति। भारतस्य 56वें अन्ताराष्ट्रिय चलच्चित्र महोत्सवस्यांशरूपेण केन्द्रीय संचार विभाग देशस्य 16 राज्येष् जीवन्त कला लोक कला प्रदर्शनानि इफ्फी इत्यत्र आनयत्। अन्ते क्रीडा वार्तास्। गुवाहाट्याः बारसापाडा क्रिकेट क्रीडांगणे भारतं विरुध्य द्वितीयायाः अन्तिमायाः च क्रिकेट निकष स्पर्धायाः प्रथमे दिवसे दक्षिणाफ्रीका दलेन 6 क्रीडकाणां हानि पुरस्सरं 47.2 धावनांकाः समर्जिताः। इतः पूर्वं दक्षिणाफ्रीका दलेन पणकं विजित्य प्रथमं क्रीडनाय निर्णयः कृतः। ध्यातव्यमस्ति यत् दक्षिणाफ्रीका दलेन प्रथमायां क्रिकेट निकष स्पर्धायां भारतीय दलं पराजितम् इति। वार्ताः।